शंसा महामिन्द्रयस्मिन् विश्वा आकृष्टयः सोमपाः काममव्यन् यम् सुक्रतुम् धिषणे बिभ्रदष्टम् घनम् वृत्राणाम् जनयम् ददेवाः यन्ननगिः प्रदनासु स्वराजम् द्वितातरदिनतमम् हरिष्ठाम् हिनतमः सत्त्वभिर्योह शोषैः पृथुज्रजा अभिनादाजुर्दस्योः सहाबा भृत्सुधरणिर्नार्वा व्यानशे रोदसे मेहना अवान् भगो न कारे हव्यो मतीनाम् पितेव चारु स्वहवो वयोधाः धर्ता दिवो रजस स्पृष्ट ऊर्ध्वो रथो न वाजुर्वसुभिर्निजत्वान् क्षपाम् वस्ता जनिता सूर्यस्य विभक्ता भागम् धिषणे भवाजम् शुनम् भुवे मम घवा नमिन्द्रमस्मिन्भरेन्द्रतमम् वाजसादौ शृण्वन्तमुग्रभूतये समत्सुघ्नन्दम् भ्रत्राणि सञ्जितन्धनानाम्